स्वरसन्धिः इति विषयः. तत्र वयं शनिवासरस्य वर्गे प्रकृतिभावः इति आरब्धवन्तः. तस्मात् पूर्वं कोऽपि ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु यदि न वदन्ति. अस्तु, तस्मात् पूर्वं किञ्चित् पुनरावलोकनं कुर्मः यान्तवान्तादेशसन्धिः इत्यस्मात् आरभ्य. तर्हि राधिका भगिनी, यान्तवान्तादेशसन्धेः उदाहरणं ददाति वा, एकम् उदाहरणम्?
अस्तु, हरे ए, हरे अय ए, हरये इति आगच्छति, अय इति आदेशः भवति एकारस्य स्थाने.
एकारस्य स्थाने अय इति आदेशः
भवति. अनन्तरं विष्णु, विष्णो ए, विष्ण ओ ए, ओकारस्य स्थाने अव आगच्छति, अतः एव. अनन्तरम् ऐकारस्य स्थाने आय् आगच्छति, औकारस्य स्थाने आव् आगच्छति, तथा एव या अन्त वा अन्त इति यान्त वान्त आदेशः सन्धि इति भवति नाम.
हा, बहु समीचीनमस्ति. ऐ अपि च आय् मिलित्वा यान्तौ, अव् अपि च आव् मिलित्वा वान्तौ, अतः यान्तवान्तादेशसन्धिः इति उच्यते. अस्तु, समीचीनमस्ति. तर्हि भगिनि, तत्र सूत्रमस्ति एकं, तत्सम्बद्धसूत्रं किञ्चित् विवृणोति वा?
अस्तु, एकनिमिषम्. अस्तु, यान्तवान्तादेशे सम्बद्धसूत्रमस्ति एचोयवायावः इति. एचः इति ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ ऐ आव् इत्येदाचे इत्यादेशाः भवन्ति इति अचिपरे दत्तमस्ति. क्रमेण इत्युक्तं सूत्रम् एतत् सूत्रमस्ति. एतासङ्ख्यमनुदेशसमानम् इति परिभाषा सूत्रमस्ति. अनेन क्रमेण आगच्छति, एकारस्य स्थाने ऐ, ओकारस्य स्थाने औ, ऐकारस्य स्थाने ऐ, औकारस्य स्थाने आव् इति आदेशः भवन्ति.
हा, बहु समीचीनं भगिनि. तर्हि एच् एच् प्रत्याहारे के के वर्णाः पुनः?
एच् प्रत्याहारे ए ओ ऐ औ इति अस्ति.
हा, इति एते वर्णाः सन्ति. सम्यक्. तर्हि अत्र एचः, एचः इत्यस्य का विभक्तिः?
एचः इत्युक्ते एचः इत्युक्ते षष्टिविभक्ति.
भवतः नाम किम् इति वदामः खलु, तत्र भवतः षष्टिविभक्तिः तद्वत्
एच्. अस्तु, अस्तु.
एच् अपि हलन्त शब्दः, तर्हि एचः षष्ट्यन्तं. षष्टि इत्युक्ते,
षष्टि इत्युक्ते स्थाने.
स्थाने, हा,
स्थाने.
एचः स्थाने क्रमेण ऐ अव् आय् आव् इत्यादेशाः भवन्ति इति उच्यते अत्र. तत्र भ्रमः मास्तु. तर्हि एच् इत्यस्य पञ्चमी विभक्त्यन्तरूपं किमस्ति?
तावदेव,
एचः एव. तत्र यण् सन्धि विधायकसूत्रं पश्यतु, तत्र इखो यणचि इति अस्ति खलु, तत्रापि षष्ट्यन्तमेव, इकः स्थाने इति आगच्छति.
इकः स्थाने,
तद्वदेव एचः स्थाने इति अत्रापि आगच्छति. अन्यत् किमपि उदाहरणं परिशीलयन्ती अस्मि यत्र पञ्चमी. हा, अकः सवर्णे दीर्घः, तत्र अकः इत्यस्य का विभक्तिः?
अकः सवर्णे दीर्घः,
अकः इति सवर्ण,
तत्र पञ्चमी विभक्ति अत्र.
अकः वस्तुतः षष्टिविभक्ति समानरूपमेव अक् इति पुनः हलन्तशब्दः इति कृत्वा, परन्तु तत्र भिन्नः अर्थः. अकः इति पञ्चम्यन्तम् इत्युक्ते परकार्यम् इति. अत्र यण् सन्धौ इकोयणचि इत्युक्ते इकः स्थाने यण् अपि च यान्तवान् देशसन्धौ एचोयवायावः एचः स्थाने आदेशः इति अर्थः अस्ति. अस्तु, समीचीनं. तर्हि इतः अग्रे सरेम. पूर्वरूपसन्धिः इति अस्ति, तत्र विद्या भगिनी किञ्चित् उदाहरणेन सहितं विवरणं ददाति वा?
यदि वयं इतोपि इति उदाहरणं स्वीकुर्मः, इतो योगः अपि इति अस्ति. तत्र इतो इति पदस्य अन्ते ओकारः अस्ति, ओकारः एङ् प्रत्याहारे अस्ति. अनन्तरं अपि इति पदस्य आरम्भे अकारः अस्ति. अत्र पूर्वपरयोः अनयोः वर्णयोः स्थाने पूर्वरूप अत्र ओकारः एव आदेशरूपेण आगच्छति, अतः इतोपि इति भवति. अत्र सूत्रमस्ति एङ्गः पदान्तात् तति, पदान्तात् एङ् वर्णात् अतिपरे पूर्वपरयोः स्थाने पूर्वरूप एकादेशः. यदि पदस्य अन्ते एङ् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत्, अनन्तरं केवलम् अकारः अस्ति चेत् तत्र तदा पूर्वपरयोः स्थाने एङ् प्रत्याहारस्य वर्णः आदेशरूपेण आगच्छति. एङ् प्रत्याहारहारे ए ओ इति वर्णौ स्तः.
हा, बहु समीचीनमस्ति. इत्येव पूर्वरूपसन्धिः इति उच्यते. अपि च तत्र भवत्याः उदाहरणं किम्? इतोपि इति आसीत् खलु, इतः इति ओकारः अभवत्, तदनन्तरम् इतो योगः अपि इतोपि. तस्मिन् उदाहरणे अन्यः कोऽपि सन्धिः भवितुमर्हति वा?
तत्रापि एचोयवायवः इति भवितुं भवति स्म, परन्तु एतत् सूत्रं तस्य अपवादः. अपि च अत्र पदान्ते अस्ति, अतः एतस्य सूत्रस्य प्रसक्तिः अस्ति.
कस्य?
एङ्गः पदान्तात् अति इति
सूत्रस्य प्रसक्तिः अस्ति. हा, यान्तवान्तादेशसन्धिविधायकसूत्रम् एचोयवायावः, तस्य प्रसक्तिः अपि अस्ति वा?
हा, तस्य प्रसक्तिः अपि अस्ति, परन्तु तस्य कार्यम् एङ्गः पदान्तात् अति इति सूत्रेण बाधितः भवति.
बाधितं भवति इति वार्ता. सर्वे अवगतवन्तः इति भाति. अभिनव महोदय, अवगतम्? हा, तर्हि यत्र कुत्रापि एङ्गः इति अस्ति, तत्र एचोयवायावः एच् प्रत्याहारे अन्तर्भूतः खलु एङ् इति सब्सेट् इव. एच् इत्युक्ते ए ओ ऐ औच्, एङ् इत्युक्ते ए ओ एव. तर्हि एचोयवायावः इति भगिन्याः उदाहरणे अपि कार्यं कर्तुम् आगच्छति. इतो अपि इत्यत्र ओकारः इति एच् प्रत्याहारे अपि अस्ति, एङ् प्रत्याहारे अपि अस्ति, परन्तु तादृशः ओकारः पदान्ते अस्ति खलु. इतो इति पदमस्ति इति कृत्वा पदान्ते तादृशी स्थितिः अस्ति चेत् एङ् इत्यस्मात् पदान्तात् एङ्गः अत् अथवा अकारः अस्ति चेत् तत्र पूर्वरूपसन्धिः जायते. स्पष्टं स्यात्? बहु सम्यक्. तर्हि अग्रे अभिनव महोदय, अग्रिमसन्धिः आसीत् पररूपसन्धिः इति, तत् किञ्चित् दृष्ट्वा विवरणं ददातु कृपया.
पररूपसन्धि यत्र अवर्णात् उपसर्गात् एङ् प्रत्ययः अस्ति, तत्पश्चात् अन्यत्र धातु अस्ति, तत्र पररूपसन्धि भवति. उदाहरणार्थं प्रयोज योगः यजते, अत्र प्र उपसर्गः अस्ति, अवर्णान्तात् उपसर्गः अस्ति, तत्पश्चात् योगः भवति, एकारस्य योगः भवति. अत्र एकारः आगच्छति.
हा, तर्हि अवर्णात् उपसर्गात् इति अपि इति समीचीनं. तदनन्तरं एजते इति अस्ति. एजते कीदृशं पदमस्ति
इति धातु रूपं.
हा हा, धातोः रूपम् इति वक्तुं शक्यते, यतोहि क्रियापदमस्ति एजते. हा, यथा वर्धते इति वदामः खलु, आत्मनेपदपदी क्रियापदं तद्वत् एजते. तर्हि अवर्णात् अवर्णान्ताद् उपसर्गात् अपि च तस्मात् परः कः स्यात्? एकारादि अथवा ओकारादिः धातुः इति वार्ता. तत्र किं भवति तस्यां दशायाम्?
एकारस्य वा ओकारस्य आदेशः आगच्छति.
हा, कस्य स्थाने?
एकारस्य ओकारस्य स्थाने वा.
अस्तु, एकारस्य वा ओकारस्य आदेशः आगच्छति इति सत्यं खलु? अधुना कस्य स्थाने इति अपि चिन्तनीयं. केवलम् अकारस्य स्थाने आगच्छति वा, प्र इत्यस्य अकारस्य स्थाने एव आगच्छति वा सः आदेशः?
न, अयोग ए अकारस्य एकारस्य अकार एकारयोः स्थाने एकारः आगच्छति.
बहु समीचीनमस्ति इति एव वार्ता. तदर्थमेव पूर्वपरयोः स्थाने इति उक्तं.
पूर्वपरयोः स्थाने.
हा, अत्र पूर्वः अस्ति अकारः, परः अस्ति एकारः. अपि च सः एकारः केवलम् एकारः इति न, यथा अपरत्र आसीत् तत्र एङादिधातुः अस्ति, तादृश एकारः. अतः परं किम् अस्ति? एकारः. सः एव आदेशरूपेण आगच्छति इति कृत्वा पररूपसन्धिः. अस्तु, अग्रिम उदाहरणं परिशीलयतु.
उपयोग ओषति, अत्र उपसर्गः अस्ति, अकारान्त उपसर्ग, तत्पश्चात् धातुरूप ओषति, ओकारः अस्ति, तत्र पूर्वपरयोः यथा अकार ओकारस्य स्थाने ओकारस्य आदेशः भवति, ततः उपोषति इति भवति.
बहु सम्यक्. उपोषति, ओ इति परः अस्ति, सः एव आदेशरूपेण आगच्छति इति कृत्वा पररूपसन्धिः इति अस्ति. अस्तु महोदय, अत्र वदतु, अत्र प्रयोगः एजते, उपयोगः ओषति, तत्र अन्यः कोऽपि सन्धिः भवितुम् अर्हति वा?
तत्र वृद्धिसन्धि भवितुं शक्नोति.
हा, बहु समीचीनं. किन्तु
न भवति.
किमर्थम्?
न जानामि भगिनि.
भवान् उक्तवान् एव, यतोहि सः अकारः, यः कोऽपि अकारः नास्ति, उपसर्गस्य उपसर्गस्य अकारः अस्ति इति विशिष्टस्थितिः. अपि च सः एकार. हा, वदतु.
यत्र पररूपसन्धि भवति तत्र वृद्धिसन्धि न भवितुं शक्नोति.
सत्यं, वृद्धिसन्धिः तदर्थं न भवति यतः अकारः केवलम् अकारः न, उपसर्गस्य अकारः, प्र अथवा उप इति उपसर्गस्य अकारः. तस्मात् एकारः अथवा ओकारः यः दृश्यते वर्णः, सः केवलम् एकारः अथवा ओकारः इति न, तत्रापि धातुरूपस्य एकारः अथवा ओकारः खलु. इति विशिष्टस्थितिः। नो चेत् सामान्यवृद्धिसन्देहे उदाहरणं ददाति वा, किमपि उदाहरणम्? अहं हा, एक योगः एकः, तत्र
एकैकः,
हा, तत्र कीदृशी स्थितिः अस्ति?
तत्र एकः प्रथम एकः उपसर्गः नास्ति, अपि च पररूपः एकः, तत्रापि धातुरूपः न भवति।
हा, बहु समीचीनमस्ति। हा, तादृशविशिष्टपरिस्थितिः नास्ति। यः कोऽपि अकारः अपरेण एकारेण सह सान्निध्यं प्राप्नोति चेत् तत्र वृद्धिसन्धिः तु भवति एव, एकैकः, अथवा अत्र जिह्वायोगः ओष्टम् इति दत्तमस्ति, जिह्वौष्टम् इति भवति आकारः, अपि च ओष्टम् इत्यस्य ओकारः। तत्रापि उपसर्गान्तः आकारः नास्ति, अपि च ओ अपि नास्ति धातुरूपस्य इति वार्ता। अस्तु, तर्हि भवानेव, तत्र पररूपसन्धिः इत्यस्य सूत्रमस्ति, तत् किञ्चित् विवृणोति वा करपत्रे?
एङि पररूपं यत्र एङि इत्युक्ते ए एकारः अथवा ओकारः, यत्र अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात्। यत्र प्रथमः शब्दः उपसर्गः भवति, अवर्णान्तात् उपसर्गः भवति, तत्पश्चात् एङादौ धातुरूपः अस्ति, तत्र पूर्वपरयोः स्थाने पररूपस्य आदेशः भवति। यतः उदाहरणार्थं वयं उदाहरणानि
परिशीलितवन्तः।
अवर्णान्तात् उपसर्गात् इङादौ धातौ परे पररूपम् एकादेशः स्यात् इति वृद्धिसन्देह अपवादः। किमर्थं वृद्धिसन्देह? प्रथमः शब्दः उपसर्गः न भवति, अपि च द्वितीयः शब्दः धातुरूपः न भवति।
सत्यं, तत्रैव वृद्धिसन्धिः भवति। वृद्धिसन्देहे अपवादः इत्युक्ते अत्रापि, नाम प्रयोगः एजते इत्यत्रापि वृद्धिसन्धिः भवितुम् अर्हति। अस्तु, तत्र कार्यक्षेत्रं तु समानं खलु? वृद्धिसन्धिविधायकसूत्रं किमासीत्?
वृद्धिरेचि।
हा, वृद्धिरेचि इत्युक्ते एचि परे आत् इत्यस्मात् एचि परे इति निमित्तमस्ति वृद्धिसन्धेहे। एच् तु जानीमः, ए ओ ऐ औ इति। तादृशपरिस्थितिः अत्रापि अस्ति, प्रयोगः एजते इत्यत्र अवर्णात् एचि परे इति परिस्थितिः अस्ति, किन्तु सः अवर्णः केवलम् अवर्णः न, उपसर्गस्य अवर्णः इति विशिष्टं वैशिष्ट्यम्। अपि च सः एच् इत्यस्मिन् यः अस्ति, सः एङादिधातुः अस्ति इति विशिष्टरूपेण आगच्छति इति कृत्वा एङीपररूपं कार्यं करोति, न तु वृद्धिरेचि। अस्तु, इति स्पष्टमस्ति वा? हा, अस्तु, तर्हि अस्यापवादः इति अस्ति, सः विषयः नूतनः, तस्मात् पठेम। कोऽपि अस्ति वा नूतनतया?
नमस्ते, अहं धनश्री।
ओ, धनश्री, नमस्कारः। केवलं शृणोति अथवा?
शृणोमि इदानीं,
अस्तु,
प्रायः।
अस्तु अस्तु, प्रश्नाः सन्ति चेत् वदतु। अस्तु, तर्हि सरला भगिनी, तर्हि पररूपसन्धिः इत्यस्मिन् पुटे एव अस्यापवादः इति अस्ति, तस्मात् आरभ्य किञ्चित् पठतु।
एकारादौ इण् धातौ ए धातौ च परे पररूपं न किन्तु विधिरेव यथा उपयोग एति उप योग अ योग ए योगति उप योग ऐ योगति वृद्धिसन्धि उपैति प्रयोग एधते प्रयोग धते प्र ए योग धते वृद्धिसन्धि प्रैधते अत्र उपैति अत्र उप अस्ति उपसर्ग तस्य अनन्तरम् अकार अस्ति एति अत्र एकार धातो अस्ति किन्तु पूर्व पररूपसन्धि तस्य प्रभाद्य वृद्धिसन्धि अत्र वर्तते उपैति अस्ति तथैव प्रयोग एधते प्र उपसर्ग अस्ति तस्य अन्तिमवर्ण अकार अस्ति एधते क्रियापदम् अस्ति तस्य आदौ वर्ण एकार अस्ति ऐकार अस्ति तस्मिन् अपि पररूपसन्धि भवितुम् अर्हति किन्तु तस्य भाद्य वृद्धिसन्धि अत्र भवति कारणम् अस्ति अन्य विशिष्टसूत्रमागत्य तत्र कार्यं करोति
हा समीचीनं तर्हि अत्र उपयोगः एति इत्यत्र पररूपसन्धिः भवितुम् अर्हति इति दृश्यते खलु
आम्
यथा अभिनवमहोदयेन पठितं तत् तथा एव उप इति उपसर्ग
उपसर्गात् परे धातो अस्ति
अवर्णान्तात् उपसर्गात् एङ्गादिधातुः तु अस्ति एव
तयोः स्थाने पूर्वपरयोः स्थाने पररूपम् आदेशः भवति
हा इति चिन्तयितुं शक्नुमः तथा न भवति उभयोः स्थाने किं भवति
उभयोः स्थाने अत्र वृद्धिसन्धि भवति ऐकार आगच्छति आगच्छति ऐकार
ऐकारः आगच्छति ऐ ऐ इति वृद्धि हा प्रथमतया भगिनि अस्तु एवं करोतु वृद्धिः इत्युक्ते के वर्णाः
वृद्धिः वृद्धिसंज्ञा सूत्रमस्ति वृद्धिरातै च तत्र आकार ऐकार औकार ऐच् प्रत्याहारे एते वृद्धिसंज्ञा भवति
सत्यं हा सम्यक् तर्हि वृद्धिसंज्ञकः एकादेशः भवति पूर्वपरयोः स्थाने इति अत्र दृष्टवन्तः तर्हि तद्विधायकसूत्रं किम् इति अस्ति तत्र करपत्रं पठति वा कृपया
आम् एते धत्सु अवर्णात् एच् आदि इण् धातौ ए धातौ ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात् अवर्णात्
अस्तु भगिनि एवं कुर्मः तद् किञ्चित् विवरणं दत्वा उदाहरणानि परिशीलयतु
अवर्णात् अत्र यथा उपसर्ग अस्ति उप तस्य अन्तिमवर्णकार अस्ति
अस्तु तर्हि एत्येतद्यूट्सु तत् सर्वैः अवगतम् इति मन्ये अवर्णात् एचादि इण् धातौ अपि च
एच् धातौ एच् प्रत्याहारे ए औ आगच्छति तस्य धातौ यदि इण् अस्ति इण् धातौ तस्य निष्पन्नं क्रियापदम् एति
एच् 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 प्रत्याहारे के वर्णाः सन्ति
एच् प्रत्याहारे ए औ
न चिन्तयतु ऐच् इति एकः प्रत्याहारः अस्तु
एच् प्रत्याहारे ए औ ऐ औ
ए ओ ऐ औ
ऐ औ चतुर वर्णः
आगच्छति
सत्यं तस्य आदि इण् धातौ ए धातौ अत्र द्वै धातौ इण् धातौ ए धातौ इण् धातौ तस्य निष्पन्नं क्रियापदम् एति यदि भवति एकारस्य आरम्भे तस्य क्रियापदे तस्मिन् रूपे ए धातौ तस्य एधते यदि रूपं भवति ऊठि इति अस्ति ऊ समूहवर्ण यदि ऊ ऊतस्य आरम्भे अस्ति वर्णसमूहस्य उटि इति सप्तमी विभक्ति अस्ति पू परे पूरपरयो स्थाने विद्रिसंज्ञक एकादेश भवति सो अस्य यथा उप अस्ति अवर्णात् तस्य परे एच् धातुः एति धातुः अस्ति तस्य पूर्वपरयो स्थाने विद्रिसंज्ञक ऐ एङ् आगच्छति तत्र
उपायोगः एति तत्र पररूपसन्धेः कार्यक्षेत्रं तु अस्ति परन्तु तत् प्रभाद्य पररूपसन्धिः न भवति उपेति इति न भवति खलु
आम्
उपैति इति वृद्धि आदेशः भवति
वृद्धि आदेशः भवति
हा अग्रे
अग्रे अवर्णादे जाद्योरित्याद्धित्योरुठि
भगिनि अग्रिम अग्रिम उदाहरणं परिशीलयतु उपायोगः एति हा तथा
तथा अग्रिम उदाहरणमस्ति प्रयोग एधते प्र तत्र प्र उपसर्ग अस्ति तस्य अन्ते अकार अस्ति सो अवर्णात् परे एधते एधते इति धातु विशिष्टधातु अस्ति तस्य पूर्वम् एकार आगच्छति उच् तत् एच् प्रत्याहारे अस्ति कारणे पररूपसन्धिः भवितुं शक्नोति किन्तु एत्यध्यत्यष्ठुसु इति सूत्रेण वृद्धिसंज्ञकः भवति एकादेश तस्य वृद्धिसंज्ञकः ऐ आगच्छति प्रेधते न भवति किन्तु प्रैधते इति रूपं निष्पन्नं भवति
हा समीचीनमस्ति इति एत्येधत्यूट्सु इति सूत्रमस्ति खलु तत्र हा तत्र निमित्तानि कानि कानि इत्युक्ते एति एधि
निमित्तानि एति एधि वा ऊट् ऊट् इति निमित्तानि परे अस्ति तस्य पूर्वम् अवर्ण निमित्तम् अस्ति निमित्तमस्ति
एधते एति एति अपि च एधते इति भवती उक्तवती अग्रिम तृतीय उदाहरणमस्ति ऊट् इत्यस्य तत् किञ्चित् परिशीलयतु
पृष्ठयोग ऊह गुणसन्धिप्रभाद्य पृष्ठौ भवति अत्र पृष्ठ इति उपसर्गः नास्ति अत्र एतस्मिन् सूत्रे उपसर्गं न विवरणम् अस्ति केवलम् अवर्णात् पृष्ठ पदम् अस्ति तस्य अन्ते अकार अस्ति ऊह तस्य पूर्वम् ऊकार अस्ति ऊठि तस्य तस्मिन् समूहे वर्णसमूहे ऊह आगच्छति अत्र गुणसन्धि भवितुम् अर्हति कार ऊकार आद्गुणे तस्य सूत्रेण ओकार भवति किन्तु तस् प्रभाद्य वृद्धि आगच्छति वृद्धि आदेश औ भवति पृष्ठौ भवति तत्र
पृष्ठौ हः इति वक्तव्यः
पृष्ठौ हः
हा समीचीनं भगिनी तर्हि यथा भगिन्या उक्तं पृष्ठ इत्यस्य अन्ते अवर्णः अस्ति तस्मात् ऊट् इति अस्ति ऊट् इत्युक्ते वर्णानां समूहे ऊकारः यः भवति तस्य ऊट् इति संज्ञा कृता इति तर्हि तत्र तु सूर्ययोगः उदयः इत्यत्र यथा सूर्योदयः इति गुणसन्धिः भवति तादृशी एव स्थितिः परन्तु तद् प्रभाद्य पृष्टौहः इति भवति
अर्थं किमस्ति पृष्ठयोगः
मया अपि किञ्चित् दृष्टं स्पोकन् संस्कृत इति अस्ति खलु तस्मिन् पृष्टौहि इति प्राप्तं तस्य अर्थः अस्ति अ कौ वित् अ न्यू बोर्न् काफ् इति वा किमपि आसीत् किन्तु पदं किञ्चित् विच्छेदनं कृत्वा पश्यामश्चेत् पृष्ट इत्युक्ते प्रिन्सिपल् फस्ट् इति किमपि अस्ति ऊहः इत्यस्य अर्थः कः इति द्रष्टव्यः किञ्चित् दृष्ट्वा वदामि कदाचित्
भगिनि
एकनिमिष किं भगिनि
ऊहा
ऊहा इति स्त्रीलिङ्गपदमस्ति
अस्तु
ऊहा इत्युक्ते वयं ऊहा करणीयं
हा इति अपि अस्ति. ऊहा इति गेस् आर् सपोजिशन्.
हा
ऊहः इत्यपि एकं पदम् अस्ति. तस्य अर्थः कन्क्लूजन्, कन्सीविङ्ग् इत्यादिकं दृश्यते अत्र.
भिन्नः अस्ति वा ऊहा इति शब्दस्य शब्देन सह कोऽपि सम्बन्धः नास्ति वा? ऊहः
अर्थान् दृष्ट्वा तु सम्बन्धः अस्ति इति भाति. ऊहा इति गेस् आर् सपोजिशन् इति अस्ति. ऊहः इत्यपि सपोजिशन् इति एकम् अस्ति.
अस्तु.
चेञ्ज् इति अस्ति, कन्क्लूजन् इति अस्ति.
पृष्ठ ऊहः
पृष्ठः इत्युक्ते तु प्रिन्सिपल् अथवा मेन् तथा अस्ति. प्रायः तत् सम्बन्धं किमपि मन्ये. अपि च सरला भगिनी, भवती शनिवासरे पृष्टवती कथं तत्र वृद्धिः इति, खलु? किमपि पृष्टवती भवती. वृद्धिः हा सामान्यतया न भवति. अकारः तस्मात् परः ऊकारः चेत् गुणः एव स्यात् इति वयं चिन्तयितुं शक्नुमः, यतोहि तत्र आद् गुणः कार्यं करोति खलु इति चिन्तयितुं शक्नुमः. आत् इत्युक्ते अवर्णात् अचीपरे इति अस्ति. परन्तु वृद्धिः न मा भवतु इति कोऽपि नियमः नास्ति. प्रष्टौहः एव तादृश उदाहरणमस्ति. केवलं चिन्तयितुं शक्नुमः, अस्तु अस्मिन् सन्दर्भे वृद्धिः भवति, तर्हि अकारः इति कण्ठ्यवर्णः, उकारः इति ओष्ठ्यवर्णः खलु. तर्हि कण्ठ्यः ओष्ठ्यः इति अस्ति. वृद्धिसंज्ञकवर्णाः के सन्ति? इति पुनः कण्ठ्यः. अस्मिन् सन्दर्भे ऐ इति कण्ठथालु, औ इति कण्ठोष्टम् इति कण्ठोष्ठ्यः खलु. तर्हि अकारः कण्ठ्यः, ऊकारः ओष्ठ्यः. तर्हि तुल्यतमः भवति औकारः कण्ठोष्ठ्यः इत्येव आगच्छति. कथम् इत्यस्य उत्तरं नास्ति. एषः स्थितिः तादृशी स्थितिः अस्ति, विशिष्टपरिस्थितिः. तदर्थमेव सूत्रेण पाणिनिना दत्तं तथा भवति अत्र गुणसन्धिं प्रबाद्य वृद्धिः इति.
भगिनी, मम एकः प्रश्नः अस्ति. ऊटि यदा वयं अदेङ्गुण तत्र केवलम् अकार अस्वकार आगच्छति, ऊटि अपि तथैव अस्ति वा? केवलम् ऊकार अस्ति ऊटि तस्य अर्थम्?
अस्तु, तत्र कश्चन भेदः वर्तते. तत्र अत् इति वदामः, अदेङ्गुणः इत्यत्र अत् अपि च एङ् खलु. तत्र तकारः यस्मात् परः भवति तादृशस्य कालसूचकः भवति तकारः. अस्तु, अत् इत्यत्र केवलम् अकारः इति सूचना लभ्यते तकारेण. तपरस्तत्कालस्य इति एकं सूत्रम् अस्ति. तादृशकार्यं तु केवलं तकारेण क्रियते, अपरेण वर्णेन इति न. अत्र ऊट् इति केवलं संज्ञा इति चिन्तयितुं शक्नुमः. तत्र ठकारस्य ऊट् इत्यस्मिन् ठकारः अस्ति खलु, तस्य तादृशकार्यं किमपि नास्ति. मात्रां सूचयितुं, ह्रस्वं दीर्घं तथा न करोति किमपि. केवलम् ऊट् इत्युक्ते अस्तु, वर्णाः सन्ति, वर्णानां समूहे ऊकारः ऊट् इत्यनेन सूचितः भवति, नामकरणमिव ऊट् इति. अस्तु अस्तु भगिनि, तर्हि सूत्रस्य व्याख्यां पठित्वा समापयतु एकवारम्.
अवर्णा देजाद्यो रेत्य धत्यो रुचि च परे वृद्धि रेखादेश स्यात्. पदच्छेदम् अवर्णात् एच् आद्योः एति एधति एधितयोः ऊठि च परे वृद्धिः एकादेशः स्यात्. यदि वयं पूर्वं पठितवन्तः अवर्णात् परे एच् इण् धातौ एत् धातौ ऊठि तस्य परे पूर्वपरयोः स्थाने विधि आदेश आगच्छति, एक आदेश आगच्छति. एङ् पररूपम् इत्यस्य अपवादः, एङ् पररूपम् इति
वृद्धि पररूपम्
एङ्गि पररूपं पररूप एङि पररूपम् इति पररूप सन्धि अस्ति, तस्य अपवाद एच् इति इन् एद् इत्यनयोः विशेषणम् अस्ति. एच् प्रत्याहारे वयं जानीमः ए औ ए ऐ औ आगच्छति, इन् एद् धातुः तस्य विशेषणं एच् प्रत्याहारस्य. एति एधति सुबन्तरूपाणि इच् तपौ धातु निर्देश इति वक्तव्यम्. एति एधति सप्तमी विभक्ति अस्ति, क्रियापदात् कथं सुबन्तरूपं भवति तत्र इच् तपौ धातु निर्देश इति वक्तव्यम् इति.
एकनिमिष किञ्चित् वदामि तत्र. एच् इति वस्तुतः उभयोः विशेषणम् अस्ति, एच् इति इण् धातोः अपि च एद् इत्यनयोः विशेषणम् इति दत्तमस्ति. इण् धातुः एजादि तदा भवति यदा प्रथमपुरुषस्य एकवचने एति इति रूपं भवति तदा. तत्र वस्तुतः एति इतः इयन्ति इति रूपाणि सन्ति इति मन्ये इण् धातोः. अपि च तत्र अधिकं प्राधान्यं नास्ति, केवलं सूत्रस्य व्याख्यायाः पूरणार्थम् उक्तमस्ति. अत्र एति एधति इति वस्तुतः क्रियापदम् इव दृश्यते खलु, परन्तु क्रियापदं नास्ति, सुबन्तरूपाणि सन्ति. सूत्रस्य तस्य प्रयोजनम् अस्ति यत् इक्ष्टिपौ धातुनिर्देशे वक्तव्यम् इति एकं वार्तिकम् अस्ति. अनेन वार्तिकेण इण् धातु परतः ष्टिप् इति प्रत्ययः आगच्छति चेत् एति इति निष्पन्नं भवति, एध् इत्यस्मात् ष्टिप् इति आगच्छति चेत् एधति इति निष्पन्नं भवति. वस्तुतः एति अपि च एधति सुबन्तरूपाणि, न तु क्रियापदानि. तस्य प्रयोजनं केवलं सूत्रे, सूत्रे सूचयितुम् एति प्लस् एद् एधति प्लस् ऊट् इत्येषाम् एतेद्यत् ऊट् ऊटः इति आगच्छति. सप्तमी बहुवचनं एत्येदत् यूट्सु इति आगच्छति. इतः अग्रे पठतु भगिनि. एतश्च
एधस्तश्च ऊट् च तेषाम् इतरेतरद्वन्द्व इत्येधत् यूठ तेषु इत्येधत् यूठसु एति एधत् एतश्च एतस्य इतरेतरद्वन्द्वसमासः अस्ति. तस्य बहुवचनम् इत्येधस्त्यूठसु सप्तमी बहुवचनविभक्ति भवति. एतेधस्य यूठसु सप्त्यान्तम् एकपदम् इदं सूत्रम्. आद्गुण इत्यस्मात् आत् इत्यस्य अनुवृत्ति, वृद्धिरेचि इत्यस्मात् वृद्धि एचि इत्यनयो अनुवृत्ति, एकपूर्वपरयो संहितायाम् इत्यनयो अधिकार अनुवृत्तिसहितसूत्रम् आत् एचि एत्यध्य एतद्यूठसु एकपूर्वपरयो वृद्धिसंहितायाम् आत् इति पूर्व यदि अवर्णात् अस्ति अवर्णात् परे एचि प्रत्याहारे यदि एति एधति वा ऊठसु एते
ऊट् इति वर्णाः सन्ति चेत्
इति वर्णाः सन्ति चेत् पूर्वपरयोः स्थाने एकः वृद्धि आदेशः भवति सन्धिविषये.
यथा
वयं उदाहरणं परिशीलितवन्तः.
हा, बहु समीचीनमस्ति भगिनि. इत्येव अस्ति. तर्हि एङ्गीपररूपं प्रभाद्य अथवा तस्य कार्यम् एङ्गीपररूपम् इत्यस्य कार्यं बाधयित्वा एत्येधत्यूट्सु कार्यं करोति. कदा? एति एधते ऊट् परे अवर्णात् एते परे. सत्यं, समीचीनम् इति वार्ता. अधुना अभिनव महोदय अस्ति वा?
आं भगिनि. भगिनि, एकः प्रश्नः अस्ति. इण् धातु इत्यस्य अर्थः कः अस्ति?
कस्य? इण्?
आम्,
इण् गतौ इति धातुः अस्ति. एति इत्युक्ते गच्छति.
आम्,
एकं सुभाषितम् अस्ति खलु, उप इति लक्ष्मी इति किमपि आगच्छति तत्र. गो इति एव अर्थः गच्छति. उद्योगिनं पुरुषसिंहमुप इति लक्ष्मी इति वा किमपि सुभाषितम् अस्ति एति इत्युक्ते गच्छति इति अर्थः. हा अस्तु, तर्हि अग्रे उदाहरणानि यानि सरला भगिन्या परिशीलितानि ततः अधोभागे किं किम् अस्ति इति परिशीलयतु. आहत्य
आहत्य एत्येधत्युठुसु एङ्गिपररूपम् इत्यस्य अपवादः, एङ्गिपररूपं वृद्धिरेचि इत्यस्य अपवादः, वृद्धिरेचि आद्गुणः इत्यस्य अपवादः.
बुद्धं वा?
आम् अवगच्छामि.
अग्रिम उदाहरणं परिशीलयतु, तदा स्पष्टं भविष्यति.
उपयोगः इति वृद्धिरेचि भवति इत्यनेन वृद्धि आदेशं प्रबाद्य एङ्गिपररूपम् इत्यनेन पररूपम् एङ्गिपररूप्यं च प्रबाद्य एत्येदत्युठुसु इत्यनेन वृद्धिः उपैति.
तत्र किं किं जातम्?
अत्र वृद्धि आदेशं भवति एङ्गिपररूपं.
न न, आरम्भे परिशीलयतु. उपयोगः एति इति अस्ति खलु?
उपयोगः एति.
हा, तत्र कः सन्धिः भवितुम् अर्हति?
प्रथमं तु वृद्धिसन्धिः भवितुम् अर्हति.
हा, इतोपि किञ्चित् चिन्तनं करोतु. तत्र गुणसन्धिः भवितुम् अर्हति वा?
गुणसन्धिः न भवितुं शक्नोति.
अस्तु, उपरि गत्वा गुणसन्धिः इति यत्र अस्ति तत् सूत्रं पठतु एकवारम्. करपत्रे एव उपरि गत्वा आद्गुणः.
अकः सवर्णे दीर्घ.
एकनिमिष. आद्गुणः इत्यस्य प्रथमवाक्यं पठतु.
अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचि परे इत्यस्य इकि परे इति
तद् त्यजतु. तत्र आद्गुणः किं वदति? अवर्णात्
अवर्णात्
अकारः वा आकारः अस्ति चेत् अचि परे. अच् इत्युक्ते
अकार.
अच् प्रत्याहारे के के वर्णाः अन्तर्भूताः?
सर्वे स्वराः सन्ति
खलु. माहेश्वरसूत्राणि पश्यन्ति चेत् तत्र ऐ ई ऐ वुन् ऋल् ऋक् ए ओङ् ऐ औच् इति पर्यन्तम् अच् इत्युक्ते सर्वे स्वराः. तर्हि सूत्रं वदति यत् अवर्णात् अचि परे, तावदेव वदति सूत्रम्. अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवतु इति सूत्रं वदति. सूत्रस्य कार्यं तावदेव. अग्रे फलितार्थः कः इति भिन्नवार्ता, यतोहि अन्ये सूत्राणि आगत्य कार्याणि कुर्युः, तद्भिन्नवार्ता. परन्तु पुनः अत्र उपयोगः एति इत्यस्यां दशायां परिशीलयतु किञ्चित्. अवर्णात् अचि परे इति स्थितिः अस्ति वा?
अस्ति.
तर्हि गुणसन्धिः भवितुम् अर्हति किम्?
आम्.
हा, गुणसन्धिः अपि भवितुम् अर्हति तत्र. परन्तु किं भवति गुणसन्धिं प्रबाद्य?
वृद्धिसन्धि आगच्छति.
हा, आद्गुणः इति सूत्रस्य प्रसक्तिः अत्रापि अस्ति. उपयोगः एति इत्यत्र अस्ति. तत् प्रबाद्य वृद्धिरेचि कार्यं कर्तुम् आगच्छति. अस्तु, तर्हि तदा किं भवति?
तदा
अग्रे पठतु.
वृद्धि आदेशं प्रबाद्य एङ्गिपररूपम् इत्यनेन पररूपम् एङ्गिपररूपं च प्रबाद्य एत्यधेत्युठुसु इत्यनेन वृद्धिः भवति
इति अवगतं वा? प्रथमं गुणसन्धेः प्रसक्तिः भवति, गुणसन्धिं प्रकार्य वृद्धिरेचि, वृद्धिरेचि सूत्रं वदति आत् एचि परे. एच् प्रत्याहारे के के वर्णाः?
सर्वे एच् प्रत्याहारे ए ओ ऐ औ
हा इत्येते वर्णाः. तर्हि अत्रापि आत् एचि परे इति एव वार्ता उपायोगः एति खलु, यथा यथा भवान् प्रदर्शितवान् एकः योगः एकः एकैकः, तद् तादृशी एव स्थितिः अस्ति. परन्तु वृद्धिरेचिं प्रबाद्य कः आगच्छति कार्यं कर्तुं? किं सूत्रम्?
एङि पररूपं.
हा, एङि पररूपम् आगच्छति, यतोहि तत्रापि अवर्णात् उपसर्गात् एङादिधातुः इति स्थितिः अस्ति खलु. हा, पुनः तद् प्रबाद्य
किमर्थम् अत्र अवर्णात् एच् आदिधातु अस्ति,
एच् आदि इण्धातुः,
इण्धातु अस्ति.
एति एति इति क्रियापदम् इण्धातुतः निष्पन्नम् अस्ति. तर्हि एजादि इण्धातुः, एति इत्युक्ते एजादि इण्धातुः, एति इति प्रथमपुरुष एकवचने इण्धातोः रूपम् खलु, सूत्रे एव उक्तम् एति इति. तदर्थम् एति एधत्यूट्सु कार्यं कृत्वा किं भवति अन्ततो गत्वा?
अन्ततो गत्वा वृद्धिसन्धि भवति.
सत्यं, समीचीनं. तर्हि एतेद्यूट्सु इत्यनेन वृद्धिकार्यमेव भवति, पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः भवति उपाय इति. अस्तु, तद्वत् प्रैधते अपि समान एव स्थितिः. प्रष्टौहः इत्यत्र केवलं गुणसन्धिं प्रबाद्य एतेद्यतूट्सु कार्यं कर्तुम् उद्युक्तं भवति इति वार्ता. समीचीनम्,
अवगच्छामि.
अस्तु, तर्हि अग्रिमसूत्रमस्ति ओमाङ्गोश्च इति. गतवर्गे एव वयं परिशीलितवन्तः शिवाय ॐ नमः इति अस्ति खलु, तत्रापि
भगिनि अत्र एत्येधत्यूट्सु एतस्मिन् सूत्रे उपसर्ग आरम्भे भवतु इति नास्ति किल?
सत्यं भगिनि, तदर्थमेव प्रष्टयोगः ऊहः इत्यत्रापि कार्यं कर्तुं शक्नोति खलु, यतोहि प्रष्ट इति उपसर्गः नास्ति. अस्तु, ओमाङ्गोश्च तु अग्रे वयं दृष्टवन्तः गतवर्गे एव, अवर्णात् उमियाङ्गी परे पूर्वपरयोः पररूपम् इति यथा सामान्यं पररूपसन्धिः. इतः अग्रे सरेम, प्रकृतिभावः इति अग्रिमसन्धिः अस्ति. तत्र राधिका भगिनी पठति वा पुस्तके यत्किमपि अस्ति?
अस्तु भगिनि, प्रकृतिभावः ऋतिप्रकृतिभावः एतानि उदाहरणानि परिशीलयत. राजा योगः ऋषिः, राजऋषिः इमे भिन्ने भिन्ने पदे, राजर्षिः अत्र विकल्पेन गुणसन्धिः भवति. अत्र राजा प्रथमं दीर्घ आकारः आसीत्, अत्र तु राज ह्रस्व अकारः भवति इमे भिन्ने पदे. अनन्तरं राजऋषिः, राजऋषिः इमं समस्तपदं, राजानां ऋषिः इति समस्तपदम्. अनन्तरं राजर्षिः अत्र विकल्पेन गुणसन्धिः भवति इति प्रथमम् उदाहरणम्. द्वितीयं,
प्रथमतया राजा इति दीर्घ आकारान्तपदमासीत् आ इति, तस्य ह्रस्वत्वं भूत्वा राजऋषिः अथवा गुणसन्धिः भूत्वा राजर्षिः,
राजर्षिः
इति विकल्पद्वयम्
अथवा विकल्पेन राजऋषिः इति समस्तपदम्.
हा, समस्तपदे तथा पृथक् पृथक् न लेखनीयं, राजऋषिः इति समस्तपदं भवति. इमे इमे भिन्ने पदे इत्युक्ते इत्युक्ते किं भगिनि?
पृथक् पृथक् पदं पदम् अस्ति इति
इत्युक्ते वाक्यस्तरे राज ऋषिः आगच्छतः इति अस्ति चेत् तत्र वाक्यं दृष्ट्वा अवगच्छामः यत् अस्तु राज ऋषिः च आगच्छतः तादृशम् अस्ति इमे भिन्ने पदे इत्युक्ते. अपि च समस्तपदम् इत्युक्ते यथा भवती उक्तवती राज्ञः ऋषिः अथवा राज्ञां ऋषिः तत्र पृथक्तया न लेखितव्यं राज ऋषिः इति एकमेव पदं भवति अन्ततो गत्वा. परन्तु उभयत्र विकल्पः अस्ति राजऋषिः अथवा राजर्षिः इति रूपम्. अग्रे भगिनि.
अस्तु. वर्षा ऋतुः वर्ष ऋतुः वर्षर्तुः अथवा समस्तपदे वर्ष ऋतुः इति भवति. विकल्पेन गुणसन्धिः भवति वर्षर्तुः इति. भिन्ने पदे राजऋषिः वत् वर्ष ऋतुः अनन्तरं समस्तपदमस्ति वर्ष ऋतुः
वर्षर्तुः वर्षऋतुः अथवा वर्षर्तुः
वर्ष अस्तु वर्षर्तुः अथवा वर्ष ऋतुः गुरु.
अत्र प्रकृतिभावः इति वदामः. प्रकृतिभावः इत्युक्ते प्रकृत्या अवस्थानं स्वभावेन अवस्थानम् इति प्रकृतिभावः. अपि च अत्र विशिष्ट अत्रापि प्रकृतिभावः कदा जायते इत्युक्ते ऋतिपरे. ऋत् इत्युक्ते ऋकारः खलु. तदा तदर्थमेव ऋति प्रकृतिभावः इति उक्तमस्ति. तर्हि सूत्रं परिशीलयिष्यामः. किं सूत्रम् इदं कार्यं विदधाति इति करपत्रात् पठति वा भगिनि प्रकृतिभावः इत्यस्मात् आरभ्य.
अस्तु.
क्षम्यतां भगिनि. भगिनि राजायोगः ऋषि इति अस्ति किल तत्र राजा ऋषि अपि एक विकल्पम् अस्ति किल?
सत्यं. हा न दत्तं. हा समीचीनः प्रश्नः. राजायोगः ऋषिः भिन्ने पदे इत्युक्ते किं वाक्यस्थरे इति अर्थः खलु. वाक्यस्थरे सन्धिः एव वैकल्पिकः इत्युक्ते यथेच वक्तुः इच्छानुगुणं सन्धिः भवति अथवा न भवति इति वार्ता. तर्हि भगिन्या यदुक्तं तत् सत्यमेव. विद्या भगिन्या यदुक्तं राजयोगः ऋषिः इत्यत्र राजा ऋषिः इत्यपि एकं भवितुम् अर्हति इति. समीचीनं भगिनि. इति अस्ति एव. अस्तु राधिका भगिनि.
अस्तु. प्रकृतिभावः असन्देहे एकः प्रकारः स्वभावेन अवस्थितिः प्रकृतिभावः इति अर्थः. प्रकृत्या इत्यनेन स्वभावेन भावः इत्यनेन अवस्थितिः. प्रकृत्या भावः प्रकृतिभावः इति नामकरणम्. स्वभावेन किम् अस्ति तदेव अन्तिमपदे अपि अस्ति इति. ऋत्यकः पदान्तस्य अक् वर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे शाकल्यस्य मतेन इति.
तस्य अर्थः कः भगिनि प्रथमवाक्यस्य?
अस्तु. पदान्तस्य अक् वर्णस्य ह्रस्वः अक् ऐ उ ऋ इति अक् वर्णः. अक् वर्णस्य ह्रस्वः आदेशः स्यात् इत्युक्ते प्रथम उदाहरणे राजा ऋषिः इति राज ऋषिः इति भवति तदेव सूचयति.
तर्हि राजायोगः ऋषिः इत्यत्र पदान्ते कः वर्णः अस्ति?
आकारः अस्ति. दीर्घ आकारः अस्ति परन्तु दीर्घ आकारः ह्रस्व आदेशः स्यात् इति.
अस्तु. अधुना मम प्रश्नः अस्ति. अक् 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 प्रत्याहारे भवती उक्तवती अ इ उन् ऋल् इति एव अस्ति खलु माहेश्वरसूत्रेषु, तर्हि तत्र ह्रस्व अकारः एव अस्ति, दीर्घः नास्ति खलु.
न आ इत्युक्ते सर्व आकार खलु, आकार आकार
हा अष्टादश अकाराणाम् अपि प्रति
अष्टादश अकारः अपि सूचयति अक् इत्युक्ते अकार इत्युक्ते.
तर्हि पदान्तस्य अक्वर्णस्य ह्रस्व ह्रस्व आदेशः भवति कदा?
ऋति परे ऋकारः पादौ अमि पदस्य आदौ अस्ति चेत् भवति.
हा परे परे यत् पदमस्ति तस्य आदौ ऋति परे इत्युक्ते तावदेव. तर्हि पाणिनि किं वदति अत्र इति चेत् पदस्य आदौ इति न वदति. अत्र तु वर्णकार्यं खलु, सन्धिः इति वर्णकार्यं, वर्णानामेव महत्त्वम् इति कृत्वा अक्वर्णः तस्मात् परः अस्ति ऋकारः अथवा ऋ इति वर्णः, तदेव ऋत् इत्यनेन सूचयति इत्युक्ते ह्रस्वऋकारः इति. तादृशी परिस्थितिः अस्ति चेत् अक्वर्णस्य ह्रस्वत्वम् अथवा ह्रस्व आदेशः भवति. अस्तु, कस्य मतेन?
शाकल्यस्य मतेन इति.
तत्र मतेन इति यदा वदति चेत् तत्र अर्थः कः?
शाकल्यः इति वदति इति, शाकल्यः एकः वैयाकरणः तस्य
मतेन तत्र सूत्रेषु यदा मतेन इति आगच्छति अथवा वा इति आगच्छति अथवा विभाषा इति आगच्छति तत्र तत्र
विकल्पेन आगच्छति इति.
हा विकल्पेन इति अर्थः, ऋत्यकः इति सूत्रं विकल्पेन कार्यं करोति इत्युक्ते प्रकृतिभावः भवितुमपि अर्हति न भवितुमपि अर्हति खलु. अस्तु अग्रे पठतु भगिनि.
यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अच् सन्धिः बाधितः अतः प्रकृतिभावः ह्रस्वादेशाभावपक्षे अच् सन्धिप्रवर्तनं यथा सामान्यम्. यस्मिन् पक्षे ह्रस्व आदेशः तस्य बलेन अच् सन्धिः बाधितः भवति. अस्तु, अत्र राजर्षिः अति अपि भवितुम् अर्हति, राज ऋषिः अपि भवितुम् अर्हति खलु.
तर्हि यदा राजऋषिः इति भवति तदा कीदृशपक्षं पक्षः कः?
राजऋषिः इति पक्षम् इत्युक्ते नृत्यकः पक्षमिति.
हा इत्युक्ते ह्रस्वादेशस्य पक्षः अस्ति.
आम् आम्
तदा
ह्रस्वादेश तदा अच्वर्णसन्धिः भवितुम् अर्हति अत्र इत्युक्ते राजऋषिः इति भविष्यति चेत् तत्र राजर्षिः न भवितुम् अर्हति भवितुम् अर्हति परन्तु विकल्पेन राजऋषिः एव भवति.
सत्यं, यत्र ह्रस्वादेशः भवति तस्मिन् पक्षे अच् सन्धिः बाधितः. अच् सन्धिः इत्युक्ते स्वरसन्धिः, यः कोऽपि सन्धिः भवतु, गुणसन्धिः वा यण् सन्धिः सवर्णदीर्घ यः कोऽपि सन्धिः भवतु सः सन्धिः बाधितः भवति. अस्तु, ह्रस्वादेशः न भवति चेत्?
ह्रस्वादेशः न भवति चेत् अच् सन्धिः भवति.
भवति, अस्तु अग्रे पठतु अन्तपर्यन्तम्.
अन्यवर्गे गच्छामि महोदय. अहम् अन्यवर्गे गच्छामि किञ्चित् काले.
अस्तु अस्तु महोदय, धन्यवादः.
धन्यवादः भगिनि.
यथा यथा सङ्गं गुणसन्धिः यन् यन् सन्धिः सवर्णदीर्घसन्धिः अपि इति इति यदि भवत्या उक्तं यन् सन्धिः गुणसन्धिः सावर्णदीर्घसन्धिः अपि बाधितम् अस्ति यथा ह्रस्वादेशः भवति
नास्ति चेत् यथा सङ्गम् इमा इमे सन्धयः भवन्ति एव इति अर्थः
इति अस्तु समासे अपि अयं प्रकृतिभावः समासे अपि इति भवति प्रति सप्तम्यन्तम् अकः षष्ट्यन्तं द्विपदम् इदं सूत्रम् अस्तु एङ्गः पदान्तात् प्रति इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः विभक्तिपरिणाम इत्यनेन पदान्तस्य इकोसवर्णे शाकल्यस्य ह्रस्वश्च इत्यस्मात् ह्रस्वः शाकल्यस्य इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायाम् अस्तु अनुवृत्तिसहितसूत्रमस्ति पदान्तस्य अकः अस्ति चेत् ह्रस्वः ऋतिः परे शाकल्यस्य संहितायाम् इति सूत्रम्
तर्हि सूत्रस्य व्याख्यायां यत्किमपि पठितं तदेव एकस्मिन् वाक्ये दत्तं तावदेव अस्ति पदान्तस्य अकः तस्य स्थाने कः आदेशः भवति
ह्रस्वः आदेशः भवति कदा इत्युक्ते ऋतिपरे
समीचीनमस्ति समीचीनं भगिनि इति एव वार्ता ऋत्यकः इति ह्रस्वादेशेन प्रकृतिभावः भवति इति ऋत्यकः इति सूत्रं सूचयति अस्तु सम्यक् तर्हि विद्या भगिनी पुस्तके अवशिष्टत्रीणि उदाहरणानि किञ्चित् परिशीलयति वा
अस्तु अस्तु भगिनि
राधिका भगिनी वर्ष ऋतुः इति पर्यन्तं
अस्तु गुरुयोगः ऋणं गुरुऋणम् इति समस्तपदम् गुरुयोगः ऋणं तत्र यण् सन्धिः भवति चेत् गुर्वऋणं गुर्वऋणं विकल्पेन यण् सन्धिः भवति अत्र भिन्ने पदे नास्ति किमर्थम् इत्युक्ते अत्र पूर्वं प्रायः गुरोः ऋणम् इति आसीत् तत्र षष्टिविभक्तिः युक्तः जातः अतः भिन्ने पदे नास्ति
सर्वे अवगतवन्तः इति चिन्तयामि खलु तत्र गुरुयोगः ऋणम् इति गुरोः ऋणम् इति व्यस्तप्रयोगः तत्र समासे जाते प्रातिपदिकमेव तिष्ठति अतः गुरुयोगः ऋणम् इति अस्ति भिन्नपदं भवितुमेव न अर्हति तदर्थं न प्रदर्शितम्
तथैव अग्रिम उदाहरणमपि वधूयोगः ऋणम् अत्र इमे भिन्ने पदे नास्ति अत्र यदि समस्तपदं भवति चेत् वधूऋणम् अत्र ऊकारः ह्रस्वः भवति वधूऋणं सन्धिः भवति चेत् यण् सन्धिः भवति चेत् ऊकारस्य स्थाने वकारः आगच्छति वद्वऋणम् इति भवति अनन्तरं
एकनिमिष भगिनि एकनिमिष कुतश्चित् ध्वनिः आगच्छन् अस्ति कृपया ध्वनिः अस्ति चेत् म्यूट् कुर्वन्तु अस्तु भगिनि अग्रे
हा अग्रे पितृयोगः ऋणम् अत्रापि भिन्नपदं नास्ति यदि समस्तपदं भवति चेत् पितृऋणम् एव अस्ति सवर्णदीर्घसन्धिः भवति चेत् पितृऋणम् इति भवति एतेषु उदाहरणेषु अ इ इ उ ऋ इत्येते स्वराः सन्ति तेभ्यः परतः ऋकारः अस्ति सन्धेः निमित्तम् अस्ति तथापि सन्धिकार्यं न सम्पन्नम् निमित्ते सत्यपि सन्धिकार्याभावः प्रकृतिभावः यथा वयं पठितं पूर्वम् अत्र सन्धिः प्रसक्तिः अस्ति परन्तु प्रकृतिभावः ऋत्यकः इति सूत्रेण विकल्पेन मूलरूपे एव तिष्ठति.
मूलरूपे स्थित्वा तत्र ह्रस्वादेशः भवति इति वार्ता अस्ति. तत्तु वैकल्पिकं वैकल्पिकः आदेशः. अस्तु, समीचीनमस्ति. तर्हि ऋतिप्रकृतिभावः इति एकविधप्रकृतिभावः. इतः अग्रे गत्वा प्लुतप्रकृतिभावः, प्रगृह्यप्रकृतिभावः इति अपि अस्ति. परन्तु करपत्रं पठतु भगिनि, विद्या भगिनि. तत्र इतोपि एकविधप्रकृतिभावः अस्ति. अग्रिमसूत्रं प्रदर्शयतु.
हा, इको सवर्णे शाकल्यस्य ह्रस्वश्च. पदान्तस्य इक् वर्णस्य ह्रस्व आदेशः स्यात् असवर्णे अचीपरे शाकल्यस्य मतेन. अत्र यदि पदान्ते इक् प्रत्याहारस्य कश्चन वर्णः इत्युक्ते इ उ ऋ इति एते वर्णः प्रथमम् अस्ति चेत् पदस्य अन्ते अनन्तरम् असवर्ण अच् प्रत्याहारः अस्ति चेत् तदा विकल्पेन इक् स्थाने ह्रस्वादेशः भवति. अग्रे यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अच् सन्धिः बाधितः, अतः प्रकृतिभावः. ह्रस्वादेश अभावे पक्षे यण् सन्धिः यथासामान्यम्. यदा शाकल्यस्य मतेन ह्रस्वादेशः भवति, इक् वर्णस्य ह्रस्वादेशः भवति, तदा अच् सन्धिः इत्युक्ते यण् सन्धिः अत्र बाधितः भवति, अतः तत्र प्रकृतिभावः. यत्र प्रकृतिभावः न भवति विकल्पेन यण् सन्धिः यथा सामान्यं भवति.
इत्येव ह्रस्वादेशाभाव इति उक्तं. इत्युक्ते ह्रस्वादेशस्य अभावः.
अग्रे अयं प्रकृति
भगिनि एतदपि वदतु, अत्र यण् सन्धिः एव बाधितः किमर्थम्?
किमर्थम् इत्युक्ते प्रथमम् इक् वर्णः अस्ति. इको यणचि इति सूत्रं पश्यामः चेत् तत्र इक् स्थाने यण् आदेशः भवति, असवर्णे अचि परे इति अस्ति. अत्रापि तादृशस्थितिः एव अस्ति. इक् अस्ति, अनन्तरम् असवर्णे अचि अस्ति. अत्र इक् स्थाने ह्रस्व आदेशः भवति, यण् सन्धेः तत्र इक् स्थाने यण् आदेशः भवति.
नाम यद्यपि इको यणचि इत्यस्मिन् सूत्रे इक् स्थाने यणादेशः असवर्णे अचि परे इति कुत्रापि न उक्तम्, परन्तु वयं जानीमः सवर्णः अच् आगच्छति चेत् तत्र सवर्णदीर्घसन्धिः भवति इति. असवर्णे अचि परे एव यणसन्धिः भवितुम् अर्हति. अत्रापि तादृशी एव स्थितिः अस्ति. असवर्णे अचि परे यण् सन्धिः भवितुम् अर्हति, परन्तु विकल्पेन. यदा इको सवर्णे शाकल्यस्य ह्रस्वश्च कार्यं करोति तदा यण् सन्धिः एव बाधितः भवति, न तु सवर्णदीर्घसन्धिः वा अन्यः कोऽपि. अपि च भवती यदुक्तवती तदपि सत्यम्. इक् अस्ति चेत् इक् परे यण् सन्धिः अथवा किं सवर्णदीर्घसन्धिः एव खलु. अग्रे
अयं प्रकृतिभावः न समासे. पूर्वस्मिन् सूत्रे समासे अपि प्रकृतिभावः इति आसीत्, परन्तु अत्र अयं प्रकृतिभावः परन्तु समासे न भवति इति अर्थः.
सत्यं भगिनि, अत्र एकं वार्तिकम् अस्ति तस्य स्पष्टीकरणार्थमपि. अस्तु, अग्रे.
हा, न सवर्णः असवर्णः, तस्मिन् असवर्णे नैतत्पुरुषः. इकः षष्ट्यन्तम्, असवर्णे सप्तम्यन्तम्, शाकल्यस्य षष्ट्यन्तं, ह्रस्वः प्रथमान्तं च अव्ययपदम्. अत्र इकः षष्ट्यन्तम् इत्युक्ते इकः स्थाने, असवर्णे सप्तम्यान्तम् इत्युक्ते असवर्णे अचि तस्मात् पूर्वं कार्यं भवति. शाकल्यस्य षष्ट्यन्तम् इत्युक्ते विकल्पेन षष्ट्यन्तम्, अत्र आदेशः विकल्पेन भवति इति अर्थः.
अत्रापि एकनिमिष, अत्र षष्टिविभक्तिः अस्ति, तस्य अर्थः कः? इति चिन्तयामः, परन्तु अत्र तथा नास्ति. केवलं यथा बालकस्य पुस्तकम् इति वदामः खलु, तादृशषष्टिः अस्ति, तावदेव.
ह्रस्वः प्रथमान्तम् इत्युक्ते ह्रस्वादेशः, इकः स्थाने ह्रस्वादेशः भवति. च अव्ययपदम् अनेकपदमिदं सूत्रम्. एङ्गः पदान्तात् तति इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः. विभक्तिपरिणामम् इत्यनेन पदान्तस्य. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पदान्तस्य इकः ह्रस्वः असवर्णे अचि शाक्यस्य संहितायाम् इत्युक्ते पदान्ते इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तस्य ह्रस्वादेशः भवति. यदि अनन्तरम् असवर्णे अचि इति, एतत्तु विकल्पेन भवति यदि सन्धि संहितायां विषयः अस्ति चेत्.
हा सम्यक् भगिनि, उदाहरणानि परिशीलयतु.
दधियोगः अत्र सामान्यतया इको एणचि इति सूत्रेण यण्सन्धिः भवति, दध्यत्र इति भवति. परन्तु इको सवर्णे शाकल्यस्य ह्रस्वश्च इति सूत्रेण विकल्पेन प्रकृतिभावः एव भवति. अत्र दधि इति पदस्य अन्ते लघु इक् एव अस्ति, अतः किमपि लघु इक् तस्य स्थाने लघु इक् एव आदेशरूपेण आगच्छति, अतः दधि अत्र इति भवति प्रथम उदाहरणे. अग्रिम उदाहरणं चक्रीयोगः अत्र यण्सन्धिनिमित्तमस्ति. यण्सन्धिः भवति चेत् ईकारस्य स्थाने यकारः, चक्रियत्र इति भवति. यदि विकल्पेन इको सवर्णे शाकल्यस्य ह्रस्वश्च सूत्रेण चक्री इति अन्ते इति पदस्य अन्ते ईकारः अस्ति, तस्य स्थाने ह्रस्वादेशः भवति. ईकारः चक्री अत्र इति भवति.
चक्रियत्र अथवा चक्र्यत्र इति द्वितीयविधप्रकृतिभावः अस्ति. वस्तुतः प्रथमविध एव, यतोहि ह्रस्वादेशेन प्रकृतिभावः खलु उभयत्र, ऋत्यकः इको सवर्णे शाकल्यस्य ह्रस्वश्च, उभयत्र तथा एव अस्ति. अस्तु
भगिनि, एतस्य सूत्रस्य उपयोगं कुत्र भवति?
भवती यद् उदाहरणं परिशीलितवती तत्र.
हा इत्युक्ते कथायाम् अपि कुत्र उदाहरणमस्ति, परन्तु कुत्र पुस्तके तु
पुस्तके नास्ति
किल?
पुस्तके नास्ति. यत्र कुत्रापि चक्रियोगः अत्र इति आगच्छति. अथवा चिन्तयतु, पदान्तस्य इक् वर्णस्य अनन्तरम् असवर्णः यः कोऽपि भवति चेत् तत्र इति एव अस्ति. अस्तु
हा अस्तु भगिनि,
अस्तु समीचीनम्. के के सन्ति नूतनतया?
अहं भगिनी अस्मि. भगिनि एकवारं डिस्कनेक्ट्.
ओ अस्तु 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 भगिनि, तर्हि पठितुम् इच्छति वा पुस्तकात्?
हा पुस्तकात्
प्लुतप्रकृतिभावः इति अस्ति.
एकनिमिष भगिनि, अहम् इदानीं गृहम् आगच्छामि.
ट्वेण्टि त्री, पेज्
ट्वेण्टि त्री. ऐम् गोयिङ्ग् अहेड्. ओके, प्लुतप्रकृतिभागः न प्लुतप्रकृतिभावः. एतद् उदाहरणं परिशीलयता. आगच्छ कृष्णा, अत्र गौश्चरति. सवर्णदीर्घसन्धेः निमित्तम् अस्ति, परन्तु सन्धिः न भवति. अतः आगच्छ कृष्णा योगः अत्र गौश्चरति इत्येव वाक्यम्. अयं प्लुतप्रकृतिभावः. तत्र कृष्णा वदति, तत्तु अत्र
लुतवर्णः अस्ति, कृष्ण इति तत्र यत्र कुत्रापि त्रीणि इति संख्या प्रदर्शिता अस्ति तत्र अर्थः अयं यत् त्रिमात्राकालेन उच्चार्यमाणः स्वरः इति, कृष्णा इति अस्ति खलु। तत्र वस्तुतः कृष्णा कृष्णा इति अकारः, तस्मात् परः कः वर्णः अस्ति?
अकारः अस्ति।
कः सन्धिः भवितुमर्हति?
सवर्णदीर्घसन्धिः
भवितुमर्हति, परन्तु सन्धिः न भवति,
न भवति।
इति कृत्वा प्लुतप्रकृतिभावः इति उच्यते।
अत्र योगः न न लिख लिखामः न, तत्र आगच्छ कृष्णा अत्र गौश्चरति,
गौश्चरति इत्येव भवति, प्लुतवर्णः तथा एव तिष्ठति, दीर्घवर्णः सवर्णदीर्घसन्धिः न भवति इति प्लुतप्रकृतिभावः। अस्तु, अग्रे पठतु।
प्रगृह्य प्रकृतिभावः, एतानि उदाहरणानि परिशीलयत। अनादियोगः उभौ, यन् सन्धेः निमित्तम् अस्ति अत्र अनादि उभौ, तत्तु वदति यन् सन्धेः कार्यं कर्तुं शक्यते अत्र न करोति।
हा, न करोति किमर्थम् इति चेत् अनादि इति अस्ति खलु, तत्र ईकारान्तं पदमस्ति, इत्युक्ते ईकारान्तं द्विवचनं पदमस्ति, तस्य प्रगृह्य इति संज्ञा अस्ति, तदर्थं यण्सन्धिः न भवति। तथैव अग्रे,
गुरु योगः उत्तिष्ठतः, तत्तु सवर्णदीर्घसन्धि सन्धेः निमित्तं, तत्तु गुरु उत्तिष्ठः उत्तिष्ठितः, तत्तु तदैव प्रगृह्य प्रकृतिभावः आयाति, न तु सवर्णदीर्घसन्धेः। ये वने योगः एते, यान्तवान्त आदेशसन्धेः निमित्तमस्ति, तत्तु वन्येते अस्ति न, एता यान्तवान्तसन्धि अस्ति चेत् वन्येते न,
यान्तवान्तादेशसन्धेः सूत्रं किम्? एचोयवायावः, इत्युक्ते एचः स्थाने क्रमेण एकारस्य स्थाने ऐ आगच्छति, तर्हि वन् योगः ऐ योगः
वनयेते न करोति, वने एते
इत्येव तिष्ठति। किमर्थं चेत् तत्र वने इति पदमपि प्रगृह्यसंज्ञकपदमस्ति इति परिशीलयिष्यामः, अग्रे पठतु।
अत्र पूर्वपदम् ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनम् अस्ति, तस्मात् परतः स्वरः अस्ति, अतः स्वरसन्धेः निमित्तम् अस्ति, तथापि सन्धेः अभावः, प्रगृह्यम् इति किञ्चित् संज्ञा, ईकारान्तं संज्ञा, ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनं प्रगृह्यं भवति, तत्तु अत्र गुरून् अस्ति न,
गुरुः इति एकवचनं, गुरु इति द्विवचनमस्ति खलु, तदेव वनम् एकवचनं, वने द्विवचनं खलु, एकारान्तद्विवचनं, गुरु इति ऊकारान्तद्विवचनं, पुनः अनादि इति ईकारान्तद्विवचनं,
अनादि
मुनिः मुनी मुनयः तद्वत्
तदेव
इति अस्ति, तर्हि एते प्रगृह्यसंज्ञक पदानि सन्ति. अस्तु, तत्र सन्धेः निमित्तम् अस्ति किन्तु सन्धिः न भवति. प्रगृह्यसंज्ञा अस्ति इति कृत्वा तद्वदेव प्लुत प्लुतस्वरः यत्र भवति तत्रापि सन्धिः न भवति इत्येव प्लुतप्रकृतिभावः अपि च प्रगृह्यप्रकृतिभावः. अस्तु, हा समीचीनमस्ति. तर्हि अधुना सूत्रं किं वदति इति पश्येम. कोऽपि स्पीकर् मध्ये अस्ति वा? मम ध्वनिः मह्यमेव श्रूयते. स्पीकर् मध्ये सन्ति चेत् म्यूट् कुर्वन्तु कृपया. अस्तु, सरला भगिनी, तत्र एकं सूत्रम् अस्ति.
अत्र ओकारान्तम् अव्ययम् इति अस्ति इत्युक्ते किं भगिनि? ओकारान्तम् ओकारः तु स्वरः अस्ति, ओकारः अव्ययमपि अस्ति वा?
अग्रे आगच्छति, पश्यामः उदाहरणं किं किम् अस्ति इति. तत्र अहो अत्र इति अस्ति खलु? न, तदपि नास्ति. हा, तत् हा सत्यं सत्यम्, ओकारान्तम् अव्ययम् अस्ति अहो अत्र तथा. अस्तु, अधुना केवलं ईकारान्त उकारान्त एकारान्त प्रगृह्यं कथं भवति इति परिशीलयिष्यामः. अग्रिम श्वस्तनवर्गे एतत् सर्वम् आयाति. अस्तु, सरला भगिनी तर्हि.
अस्तु भगिनि, प्लुतप्रगृह्यः अचि नित्यं, प्लुतवर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठति अचि परे. यदि प्लुतवर्णः अस्ति ते वर्णाः प्रगृह्यवर्णः अपि नित्यं तिष्ठति, विकल्पेन अत्र न भवति प्रकृतिभाव. प्लुताः प्राग्यश्च अचि परे नित्यं प्रकृत्या स्युः. प्रगृह्याश्च अचि परे नित्यं प्रकृत्या स्युः. प्लुताश्च प्रगृह्याश्च प्लुता प्रगृह्याः इतरेतरद्वन्द्व. प्लुतप्रगृह्याः प्रथमान्तम् अचि सप्तम्यन्तं नित्यं प्रथमान्तं त्रिपदं सूत्रं. प्रकृत्यान्तः पदमव्यपरे इत्यस्मात् प्रकृत्या इत्यस्य अनुवृत्ति संहितायाम् इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं प्लुतप्रगृह्याः अचि नित्यं प्रकृत्या संहितायाम्. अनुवृत्तिसूत्र वदति प्लुतप्रगृह्याः यदि पूर्वपदं प्लुत वर्ण अस्ति वा प्रगृह्यवर्ण अस्ति अचि तस्य परे यदि अस्ति तत्र नित्यं प्रकृतिभाव सन्धि भवति. अत्र अधोभागे दत्तमस्ति प्रगृह्यवर्णाः के के सन्ति.
हा, इति अग्रे परिशीलयिष्यामः. किन्तु अत्र प्लुतवर्णाः इत्युक्ते कः भगिनि, कः वर्णः?
प्लुतवर्ण यथा अकवर्ण भगिनि, प्लुतवर्ण अकवर्ण ते यदि प्लुत भवति तत्र प्लुत. यदा वयं उदाहरणं परिशीलितवन्तः आगच्छ कृष्ण अत्र गौश्चरति, अत्र अकार प्लुत अस्ति अन्ते अस्ति, तस्य अनन्तरम् अच् वर्णस्य अकार आगच्छति प्लुतवर्णस्य.
वस्तुतः प्लुतवर्णः इत्युक्ते त्रिमात्राकालेन उच्चार्यमाणः इत्युक्ते ह्रस्वः अपि नास्ति दीर्घः अपि नास्ति
दीर्घमपि नास्ति
प्लुतः इत्युक्ते इतोपि दीर्घतया उच्चार्यमाणः वर्णः. अस्तु, प्लुतवर्णः प्रगृह्यवर्णः अस्ति चेत् तदा
तस्य परे यदि अचि प्रत्याहारे के कोऽपि वर्णः अस्ति प्रकृतिभावसन्धि नित्यं भवति. अन्य अच्छवर्णसन्धि भवितुम् अर्हति किन्तु न भवति.
हा हा, समीचीनमस्ति. इत्येव अस्ति प्लुतप्रगृह्य प्रकृतिभावः. अत्र विकल्पः नास्ति, तत्र ऋतिपरे
ऋतिपरे तत्र विकल्पः अस्ति शाकलेन मतेन शाकलस्य मतेन परे अत्र नित्यं भवति अन्य सन्धि प्रभाद्य प्रकृतिभावः भवति सन्धि
सत्यं किन्तु प्लुतवर्णः अथवा प्रगृह्यवर्णः तत्र नित्यमस्ति
पूर्वमस्ति आम्
नित्यमस्ति नाम विकल्पः एव नास्ति प्रकृतिभावः करणीयः एव इति अस्ति अस्तु इदानीं प्लुतवर्णः प्रगृह्यवर्णः इत्युक्ते कः तत्र नामकरणम् अग्रिमसूत्रेण क्रियते भगिनि अग्रिमसूत्रं पठतु किञ्चित्
इदुदे द्विवचनं प्रगृह्यम् इकारान्त उकारान्त एकारान्त च द्विवचनान्तशब्दः प्रगृह्य संज्ञक स्यात् ईदुदे दन्तं द्विवचनं प्रगृह्य संज्ञा स्यात् ई च उच ए च ईदुदे समाहारद्वन्द ईदुदे प्रथमान्तं द्विवचनं प्रथमान्तं प्रगृह्यं प्रथमान्तं त्रिपदं सूत्रम् ईदुदे इति विशेषणं द्विवचनम् इति विशेषं येन विद् तदन्तस्य इत्यनेन तदन्तविधिः इयम् एवं त ईदुदे द्विवचनम् इत्युक्ते ईकारान्तद्विवचनं शब्दरूपम् उकारान्तद्विवचनम् एकारान्तद्विवचनं च अनुवृत्तिसहितसूत्रम् ईदुदे द्विवचनं प्रगृह्यम् अत्र दत्तम् अस्ति प्रगृह्यं वर्णा के के सन्ति ईदु ईकारान्त ऊद् ऊकारान्त एत् एकारान्त यदि द्विवचने अस्ति द्विवचनपदम् अस्ति तस्य अन्ते यदि ईकार ऊकार वा एकार अस्ति तत् प्रगृह्यसंज्ञक वर्णः सन्ति
हा कदा कदा ईकारान्तद्विवचनं भगिति भवति भगिनि इत्युक्ते इकारान्तप्रातिपदिकं यदा भवति तदा एव खलु मुनिः
आम् आम् मुनि यथा वयम् अनादियुग योग उभौ वयं दृष्टवन्तः
हा तत्रापि अनादिः इति इकारान्तपदम्
इकारान्त द्विवचने ईकार अन्ते अस्ति
सत्यम् अथवा स्त्रीलिङ्गे मतिः इति पदं तादृशपदं भवति चेत्
मति
द्विवचने एव तदा ईकारान्तः भवति द्विवचने ऊकारान्तः कदा भवति
यथा गुरु अस्ति शिशु गुरु द्विवचने भवति ऊकारान्तशब्दः एकारान्तशब्दः भवति यदा वनं वने वनानि वने द्वितीयविभक्त्याम् एकारान्तशब्दः आगच्छति तत्र
नपुंसकलिङ्गे अथवा
स्त्रीलिङ्गे लते लता लते अस्तु
लताः अस्तु तादृशद्विवचनान्तशब्दाः प्रगृह्यसंज्ञकाः
ईत् ऊत् एत् एते द्विवचनस्य विशेषणं भवति द्विवचनं विशेषम् अस्ति प्रगृह्यम् इति तस्य संज्ञा अस्ति तत् संज्ञासूत्रम् अस्ति ईदि ईदुदे द्विवचनं प्रगृह्यम्
हा सत्यम् इति एव अस्ति अस्तु अत्र येन विधिस्तदन्तस्य इति यत् सूत्रमस्ति तत् सूत्रं वदति यत् अस्तु ईद् इति वदामश्चेत् ईत् इति वदामश्चेत् तत्र केवलम् ईत् इति न तस्य अर्थः अयं यत् तादृशपदं यस्य अन्ते ईत् अस्ति अथवा तादृशपदं यस्य अन्ते ऊद् अस्ति अथवा तादृशपदं यस्य अन्ते एत् अस्ति इति येन विधिस्तदन्तस्य इति परिभाषासूत्रेण वक्तुं शक्नुमः नो चेत् यत्र कुत्रापि ईकारः दृश्यते तत्र प्रगृह्यम् इति वक्तुं शक्नुमः खलु तथा नास्ति केवलम् ईकारः
अन्ते ईकारः अस्ति वा ऊकार वा एकार द्विवचने अस्ति
हा हा ईदुदे द्विवचनम् इत्युक्ते ईकारान्तद्विवचनम् ऊकारान्तद्विवचनम् एकारान्तद्विवचनम् तादृशस्य प्रगृह्य संज्ञा भवति इति सूत्रं वदति. अपि च उदाहरणानि दृष्टवन्तः, यत्र भगिनी पुष्पा भगिनी पठितवती अनादियोगः उभौ, तत्र अनादियोगः उभौ एव, प्रकृतिभावः नित्यः, यतोहि प्लुतप्रगृह्य अचिनित्यम् इति सूत्रं वदति खलु, नित्यरूपेण प्रकृतिभावः भवति. अस्तु, समीचीनं. तर्हि अग्रिमम् एकं सूत्रं पठित्वा समापयामः. तत्र प्लुतः कुत्र भवति इति अग्रिमसूत्रं वदति. राधिका भगिनी अस्ति वा अधुनापि?
आम् आम् आं भगिनि.
अग्रे पठतु भगिनि.
दूराद्युचेव,
दूराधूते च,
दूते च, अस्तु, दूराधूते च, दूरात् सम्बोधने यद्वाक्यं तस्य टेः प्लुतः वा स्यात्. भाष्यकारैः प्लुतसम्बद्धसूत्राणि विकल्पेन भवन्ति, तस्मात् वा सूत्रे आनीयते. अरे देवदत्त इति दृष्टान्ते सम्बोधनस्य अन्तिमः अकारः विकल्पेन प्लुतो भवति, देवदत्त इति. जठो होन्तरस्याम् इत्यनेन हकारस्य स्थाने धकारादेशः, दूरात् पञ्चम्यन्तं, भूते सप्तम्यन्तं च अव्ययपदं त्रिपदम् इदं सूत्रं. वाक्यस्य टेः प्लुत उदात्तः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं दूरात् हूते च वाक्यस्य टेः प्लुतः वा. अस्तु, दूरात् सम्बोधने यद् यद्वाक्यं तस्य टेः प्लुतः वा स्यात्. सम्बोधनम् अस्ति चेदपि प्लुतः एव तिष्ठति.
सम्बोधनम् अस्ति, अपि च सम्बोधनं वाक्ये अस्ति खलु. आगच्छ कृष्ण इति एकं वाक्यम् अस्तु, दूरात् सम्बोधनमस्ति, तस्मिन् वाक्ये टेः प्लुतः स्यात्. टि अस्तु, मुनिः इत्यस्य षष्टिविभक्तिः किं भगिनि?
मुनेः
तद्वद् टि इति एकः भागः तस्य षष्टि, टेः तादृश टिभागस्य प्लुतः स्यात् इति वदति तत्र. हा, अग्रे इतोपि एकं सूत्रमस्ति, पठतु.
ओके, अस्तु. अचोन्तयादि टि, अचां मध्ये यः अन्त्यः सः आदिः, यस्य तत् टि संज्ञकं स्यात्. सूत्रं स्वयं सम्पूर्णम् अचः अन्त्यादि टि.
किञ्चित् तत्र साहाय्यं दास्यामि. तत्र अचोन्त्यादिः टि इत्युक्ते अचां मध्ये यः अन्त्यः. इदानीं रामान् इति पदमस्ति इति चिन्तयतु. रामान् इत्यस्मिन् पदे आकारद्वयमस्ति खलु. तत्र अन्तिमः, तेषां मध्ये अन्तिमः आकारः, तस्मात् आरभ्य नकारपर्यन्तं यः भागः अस्ति आन् इति, सः भागः टि इति उच्यते. अस्तु, तर्हि दूराधूते च इत्यस्मिन् वाक्ये, इत्यस्मिन् सूत्रे दत्तमस्ति यत् दूरात् सम्बोधने वाक्यस्य टेः नाम अचां मध्ये यः अन्त्यः अस्ति, अचोन्त्यादिः, तस्मात् आरभ्य अन्तिमपर्यन्तं टि संज्ञकभागः, तस्य भागस्य प्लुतसंज्ञा स्यात् इति इदं सूत्रं वदति. बुद्धम्? हा, आगच्छ कृष्ण इत्यत्र अन्तिमः अकारः एव टि भागः. अस्तु, तावदेव वदति एतत् सूत्रं. तस्य प्लुतसंज्ञा अस्ति, अपि च प्लुतसंज्ञा वैकल्पिकः विकल्पेन, तदर्थमेव वा इति योजितमस्ति. भाष्यकारस्य भाष्यां दृष्ट्वा दूराधूते च इत्यनेन यः प्लुत या प्लुतसंज्ञा अस्ति सा वैकल्पिका इति सूचयन्ति. अनुवृत्तिसहितसूत्रम् एकवारं पठतु.
अनुवृत्तिसहितसूत्रं दूरात् हूते च वाक्यस्य तेः प्लुतः वा
इत्येव अस्ति. पुनः इतोपि एकवारं श्वस्तनवर्गे परिशीलयिष्यामः.
भगिनि प्रथमं प्लुतप्रक्रियाः अचिनित्यम् इति दृष्टवन्तः. तत्र प्लुतवर्णाः प्रकृतिभावे नित्यं तिष्ठति इति अस्ति अचीपरे. अत्र प्लुतः कान्फ्लिक्ट् अस्ति किल?
कान्फ्लिक्ट् नास्ति भगिनि तत्र. अस्तु, तत् सूत्रं वदति प्लुतप्रगृह्य अचिनित्यं वदति. यदा यदा प्लुतसंज्ञा भवति तदा नित्यं प्रकृतिभावः इति तत् सूत्रं वदति प्लुतप्रगृह्य अचिनित्यं. दूराद्भूते च किं वदति? प्लुत प्लुतसंज्ञा एव वैकल्पिकः वैकल्पिकी संज्ञा अस्ति इति. अस्तु, तर्हि अरे देवदत्त इति वक्तुः विवक्षानुगुणं प्लुत भवितुमर्हति नापि भवितुमर्हति. परन्तु यदि प्लुत भवति तदा अवश्यं प्रकृतिभावः करणीयः एव.
अस्तु अस्तु
इति वार्ता.
अस्तु अस्तु भगिनि.
अस्तु अस्तु तर्हि तर्हि अत्र स्थगयामः. श्वस्तनवर्गे इतोपि किञ्चित् परिशीलनं भविष्यति. कोऽपि प्रश्नः अस्ति वा? अस्तु, शुभरात्रिः. धन्यवादः.
धन्यवादः.